इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् अथ वार्ताः विस्तरेण लोकसभा निर्वाचनस्य अन्तिमचरणाय प्रचाराभियानं सजवं प्रवर्तते यतो हि मतदानाय दिनद्वयमेव अवशिष्टमस्ति एतस्मिन् सप्तमे चरणे सप्तराज्यानां केन्द्रशासितप्रदेशानां च सप्तपञ्चाशत् आसनेभ्यः मतदानं जूनमासस्य प्रथमे दिनांके भविष्यति पश्चिमबंगालस्य मथुरापुरे एकां जनसभां सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् अद्य जगति सर्वे भारतम् आदरपूर्वकं पश्यन्ति भवतु नाम अमेरिका यूरोपः जापानं वा श्रीमोदी अवदत् यत् एतत् तदा सम्भवम् यदा जनै केन्द्रे भाजपा नेतृत्वे एनडीए इति सर्वकाराय मतदानं कृतम् निजप्रशासनस्य उपलब्धीनां गणनां कुर्वन् प्रधानमन्त्री प्रोक्तवान् यत् विगत दशवर्षेष् केन्द्रसर्वकारेण चत्ःकोटिभ्यः निर्धनजनेभ्यः आवासभवनानि प्रदत्तानि अपि च द्वादशकोट्यधिक गृहेष् जलव्यवस्था च कृताः लोकसभानिर्वाचनस्य षष्ठे चरणे महिलामतदातृणां संख्याः पुरूषाणाम् अपेक्षया त्रिप्रतिशतात्मिका अधिका आसीत् ह्यः निर्वाचनायोगेन एतद् विवरणं प्रख्यापितम् मतदान पर्यवेक्षणदलेन शनिवासरे आयोजितस्य लोकसभानिर्वाचनस्य षष्ठचरणस्य मतदातृणां पूर्णसंख्या प्रकाशिता प्रतिवेदनानुसारं पञ्चषष्टिः प्रतिषण्मिताः महिलामतदातारः निजमताधिकारस्य प्रयोगं कृतवत्यः अपरतः द्विषष्टिप्रतिषण्मिताः पुरुषमतदातारः निजमताधिकारस्य प्रयोगं कृतवन्तः एतदतिरिच्य तृतीयलिङ्गस्य मतदातृणां प्रतिशतम् ऊनविंशमितं परिलक्षितम् एतद्विवरणं निर्वाचनप्रक्रियायां जनभागितां सूचयति बिहार झारखण्ड लद्दाख ओडिशा उत्तरप्रदेश चेत्यादिषु राज्येषु पुरुषमतदातृणाम् अपेक्षया महिलामतदातृणां संख्या अधिका आसीत् ध्यास्पदं वर्तते यत् अस्य मासस्य पञ्चविंशे दिनांके अष्टराज्यानाम् अष्टपञ्चाशत् आसनेभ्यः मतदानं सञ्जातम् सर्वोच्चन्यायालयस्य पञ्जीयन कार्यालयेन अद्य नवदिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य अस्थायि प्रतिभूतेः सप्तदिवसं यावत् समेधमानां सूचीबद्धां कर्तुम् अस्वीकृतम् श्रीकेजरीवालेन निजचिकित्सा परीक्षणं कर्तुम् एषा याचिका पञ्जीकृता आसीत् केजरीवालस्य आवेदनम् अस्वीकुर्वन् सर्वोच्चन्यायालयस्य पञ्जीयन कार्यालयेन प्रोक्तं यत् सः उच्चन्यायालयस्य पार्श्वे गन्तुं स्वतन्त्रता अस्ति छत्तीसगढ़स्य बीजापुर जनपदे सुरक्षाबलेन एका महिला नक्सलवादी द्वौ च माओवादिनौ मारितौ अयं संघर्षः अद्य प्रातः बड्डेपारायाः वनेषु सञ्जातः संघर्षे या महिला मारिता तस्याः उपरि अष्टलक्षरूप्यकाणां पारितोषिकम् आसीत् संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति ऋतुविज्ञान विभागेन पश्चिमोत्तर मध्यभारते च प्रवर्तमाने भीषणातपे श्वः आरभ्य शनैशनेः न्यूनतायाः अनुमानः प्रकटितः भीषणातपस्य स्थितिः श्वः यावत् जम्मू हिमाचल प्रदेश पंजाब हरियाणा चंडीगढ़ दिल्ली उत्तरप्रदेश मध्यप्रदेश छत्तीसगढ़ बिहार ओडिशा राज्येषु एमे प्रवर्तिष्यते पश्चिमोत्तर मध्यभारते अद्य अधिकतम तापमाने किंचित महत्वपूर्ण परिवर्तनं नैव भविष्यति इति अनुमीयते एतेषां क्षेत्राणां तापमाने आगामि दिनेषु द्वित्रिमिता अपचितेः आशा विद्यते भीषणतापानन्तरं साम्प्रतं रेमल चक्रवातकारणात् अतिवृष्ट्या भूस्खलनैः च सम्पूर्णे अपि पूर्वोत्तरराज्ये जनजीवनं पर्याकुलितं संवृत्तम् ऋतुविज्ञानविभागेन पूर्वोत्तरभारतस्य विभिन्नराज्यानां कृते रक्तवारणिकी सञ्चेतना प्रसारिता अस्ति यत्र गतासु चतुर्विंशतिषु होरासु चक्रवातकारणात् न्यूनातिन्यूनं त्रयस्त्रिंशत् जनाः मृत्युम् उपगताः अद्य असमस्य मुख्यमन्त्री डॉ हिमन्त विश्वशर्मा नागांव होजे कार्बी आंगलांग गोलाघाट दीमा हसाओ काचर हैलाकांडी करीमगंज इत्येतेषु जनपदेषु सर्वाणि अपि शिक्षण संस्थानानि पिधातुम् आदिष्टवान् निरन्तरवृष्ट्या सञ्जातैः भूस्खलनैः उत्तरीय असमेन भारतस्य शेषभागैः च बराक उपत्यकायाः त्रिपुरायाः मणिपुरस्य मिजोरमस्य च मार्गसम्बन्धः सम्प्रति विच्छिन्नः अस्ति बराक उपत्यकायां जलाप्लावस्थितिः समुत्पन्ना अस्ति उपराष्ट्रपतिः जगदीप धनखड़ः स्वउत्तराखण्डे एकदिवसीयां यात्रां करिष्यति। सः कैंचीधाम्नि नीमकरौली बाबा इत्याख्ये पवित्रस्थले गमिष्यति। अस्यां यात्रावधौ सः पन्तनगरस्थ गोविन्दबल्लभपन्त कृषि प्रौद्योगिकी विश्वविद्यालये एकं सम्मेलनम् अपि सम्बोधयिष्यति। विदेशमन्त्री डॉ एस जयशंकरः अद्य संयुक्तराष्ट्रस्य अन्ताराष्ट्रिय शान्तिरक्षक दिवसमालक्ष्य जनेभ्यः शुभकामनाः प्रदत्ताः। असौ एकस्मिन् सामाजिक अन्तर्जालीय पटले वीरपुरूषाणां महिलानां च कृते तेषां शान्तिरक्षणाय सुरक्षाकरणाय योगदानाय च वर्धापिताः। दिल्ल्याः उपराज्यपालेन वीके सक्सेना इत्यमुना राष्ट्रिय राजधान्यां भीषणातपं निध्याय मध्याह्ने द्वादशवादनात् अपराह्ने त्रिवादनं यावत् निर्माणस्थलेषु कार्यरतेभ्यः श्रमिकेभ्यः वेतनिकावकाशस्य आदेशः प्रदत्तः। श्रीसक्सेनावर्येण मुख्यसचिवं नरेशकुमारम् अस्मिन् लोकनिर्माणविभागस्य अधिकारिभिः सह तात्कालिकोपवेशनस्य निर्देशः प्रदत्तः। उज्बेकिस्तानस्य ताश्कन्दे एशिया आर्म रेसलिंग चैम्पियनशिप इत्येतस्यां बाहुमल्लस्पर्धा मालिकायां भारतेन एकं सौवर्णं षट् कांस्यं च समेत्य आहत्य सप्तपदकानि विजितानि। श्रीमन्तझा श्रेणीद्वये एकं स्वर्णपदकम् एकं कांस्यं च पदकं जितवान्। मास्टर्स इत्यस्मिन् वर्गे लक्ष्मणसिंह भण्डारी कांस्यपदकद्वयम् अलभत्। सचिन गोयलेन वरिष्ठे वर्ग कांस्यपदकं जितम्। अत्रान्तरे महिलानां प्रतियोगितासु अरुणाचलप्रदेशस्य ईबी लोलेन कांस्यपदकद्वयं जितवती। सर्बियादेशीय टेनिस क्रीडक नोवाक जोकोविच गतरात्रौ पेरिसे आयोजिते द्वन्द्वे सारल्येन विजयम् अवाप्य फ्रेंच ओपन टेनिस स्पर्धा मालिकायाः द्वितीयं चक्रं सम्प्राप्तः। सप्तत्रिंशद्वर्षीय जोकोविचः द्वितीये चक्रे स्पेनदेशीयं प्रतिद्वन्द्विनं रॉबर्टो कार्वालेस बेना इत्येतं सम्मुखीकरिष्यति। जोकोविचस्य एषा पञ्चविंशतितमी ग्रैंड स्लैम स्पर्धा भविष्यति। केन्द्रीय स्वास्थ्य सचिव अपूर्वचन्द्रः अवदत् यत् भारतं विश्वस्वास्थ्य संघटनस्य सहकारेण औषधि विनियामक प्रणालीं भूयः अपि सुदृढां कर्तुम् इच्छति, येन सर्वेषां कृते उच्चगुणवत्तायुतानां चिकित्सोपादानां त्वरिता सुलभा च उपलब्धिः सुनिश्चिता स्यात्। जिनेवानगरे सप्तसप्ततितम्याः विश्वस्वास्थ्यसभायाः पूर्णसत्रं सम्बोधयन् चन्द्रमहोदय एवम् अवदत्। लोकसभानिर्वाचनस्य अन्तिमचरणाय प्रचाराभियानं सजवं प्रवर्तते, यतो हि मतदानाय दिनद्वयमेव अवशिष्टमस्ति। सर्वोच्चन्यायालयस्य पञ्जीयन कार्यालयेन अद्य नवदिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य अन्तरिमा प्रतिभूतिः अस्वीकृता। छत्तीसगढ़ बीजापुर जनपदे सुरक्षाबलेन एका महिला नक्सलवादी द्वौ च माओवादिनौ मारितौ। ऋतुविज्ञान विभागेन पश्चिमोत्तर मध्यभारते च प्रवर्तमाने भीषणातपे श्वः आरभ्य शनैः शनैः न्यूनतायाः अनुमानः प्रकटितः। अपि च सर्बियादेशीयः टेनिस क्रीडकः नोवाकः जोकोविचः फ्रेंच ओपन टेनिस स्पर्धा मालिकायाः द्वितीयं चक्रं सम्प्राप्तः।